मातृस्तवनम् मातुराशिषा वन्दिता भुवि सन्ति हि नरो नन्दिता दिवि धारितोऽस्म्यहं सोदरे त्वया पालितोऽस्म्यहं स्वस्तने त्वया शिशुरहं यदा केलिलं पटः न श्रुतं मया ते तदा वचः शिक्षणे मम न च कदा रुचिः सा त्वया कृता वर्धिता मतिः बालवर्धनं कष्टदायकं मन्यसे तु तद् हर्षकारणं रोगपीडितो यत्कदाप्यहं सेवसे तदा मामहर्निशम् विस्मराम्यहं ते कथं कृतं मत्कृते सदा प्रेमसंयुतं पश्यसि गुणं सर्वदा मम अवगुणं तु मे नेक्षसे कथम् इयमुदारता त्वयि च वर्तते नेतरत्र सा जगति दृश्यते दुर्लभा न हि बान्धवा भुवि जननि दुर्लभा त्वत्समा अयि मातृदेवो यद्भवश्रुतिश्च तत् ब्रवीत्यादराद्भावयेप्यहम् मातरि नरो देवमीक्षते सर्वतोऽपि तं सहि निरीक्षते अथ मयार्चनं वन्दनं कृतं तव च कीर्तनं पादसेवनं जननि तेऽप्यहं सर्वदारुणी भक्तिरस्तु मे निश्चला त्वयि अम्ब त्वामहं प्रणतवान् सदा आशिषश्च त्वं देहि मे मुदा अम्ब त्वामहं प्रणतवान् सदा आशिषश्च त्वं देहि मे मुदा आशिषश्च त्वं देहि मे मुदा ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ